నక్షత్ర సూక్తం.
ఓం శ్రీ గురుభ్యో నమః. హరి ఓం. ఓం అగ్నిర్నః పాతు కృత్తికాః నక్షత్రం దేవమింద్రియం ఇదమాసాం విచక్షణం కవిరాసంజోతన యస్య భాంతి రశ్మయో యస్య కేతవః యస్యేమా విశ్వా భువనాని సర్వా సకృత్తికాభిరభి సంవసానః అగ్నిర్నో దేవస్సు వితే దధాతు. ఓం ప్రజాపతే రోహిణీ వేతుపత్నీ విశ్వరూపా బృహతీ చిత్రభానుః సానో యజ్ఞస్య సువితే దధాతు యథా జీవేమ శరదః సవీరాః రోహిణీ దేవ్యుదగాత్ పురస్తాత్ విశ్వారూపాని ప్రతిమోదమానా ప్రజాపతిగుం హవిషా వర్ధయంతి ప్రియా దేవానాముపయాతు యజ్ఞం. ఓం సోమో రాజా మృగశీర్షేణ ఆగన్న శివం నక్షత్రం ప్రియమస్య ధామా ఆప్యాయమానో బహుధా జనేషు రేతః ప్రజాం యజమానే దధాతు. యత్తే నక్షత్రం మృగశీర్షమస్తి ప్రియగుం రాజన్ ప్రియతమం ప్రియాణాం తస్మై తే సోమ హవిషా విధేమా షన్న ఏధి ద్విపదేశం చ దుష్పదే. ఓం ఆర్ద్రయా రుద్రః ప్రథమానయేతి శ్రేష్ఠో దేవానాం పతిరగ్నియానాం నక్షత్రమస్య హవిషా విధేమా మానః ప్రజాగుంరీరిషన్మోత వీరాణ్ హేతి రుద్రస్య పరిణో వృణక్తు ఆర్ద్రా నక్షత్రం జుషతాగుం హవిర్నః ప్రముంచమానౌ దురితాని విశ్వా అపాఘశకుం సన్నుదతామరాదిం. ఓం పునర్నో దేవ్యదితి స్పృణోతు పునర్వసో నః పునరేతాం యజ్ఞం పునర్నో దేవా అభియంతు సర్వే పునః పునర్వో హవిషా యజామః ఏవా న దేవ్యదితిర నర్వా విశ్వస్య భర్త్రీ జగతః ప్రతిష్ఠా పునర్వసో హవిషా వర్ధయంతి ప్రియం దేవానామప్యేతు పాథః. ఓం బృహస్పతిః ప్రథమం జాయమానః తిష్యన్నక్షత్రమభిసంబభూవ శ్రేష్ఠో దేవానాం పృతనాసు జిష్ణుః దిశో ను సర్వా అభయన్నో అస్తు తిష్యః పురస్తాదుతమధ్యతో నః బృహస్పతిర్నః పరిపాదు పశ్చాత్ బాధేతాం ద్వేషో అభయం కృణుతాం సువీర్యస్య పతయస్యామా. ఓం ఇదగుం సర్పేభ్యో హవిరస్తు దుష్టం ఆశ్లేషా యేషా మనుజంతి చేతః యే అంతరిక్షం పృథివీం క్షియంతి తేన సర్పాసో హవమాగమిష్ఠాః యే రోచనే సూర్యస్యాపి సర్పాః యే దివం దేవీమను సంచరంతి యేషామాశ్లేషా అనుయంతి కామం తేభ్యః సర్పేభ్యో మధుమజ్జుహోమి. ఓం ఉపహూతాః పితరో యే మఘాసు మనోజవసః సుకృతః సుకృత్యాః తే నో నక్షత్రే హవమాగమిష్ఠాః స్వధాభిర్యజ్ఞం ప్రయతం జుషంతాం యే అగ్నిదగ్ధా యేనగ్నిదగ్ధాః ये मुल्लोकम् पितरः क्षियन्ति यागश्च विद्मयागम् उच न प्रभिद्मा मघासु यज्ञकम् सुकृतम् जुषन्ताम् ॐ गवाम् पतिः फल्गुनी नाम सित्वम् तदर्यमन्वरुणमित्रचारु तन्त्वा भयगुंसनितारगुंसनीनाम् जीवा जीवन्तमुपसंविशेम येनेमा विश्वा भुवनानि सञ्जिता यस्य देवा अनुसंयन्ति चेतः हर्यमा राजाजरस्तु विष्मान् फल्गुनीना मृषभोरोरवीती ॐ श्रेष्ठो देवानाम् भगवो भगासि तत्त्वा विदुः फल्गुनीस्तस्य वित्तात् अस्मभ्यम् क्षत्रमजरगुम् सुवीर्यम् गोमदश्ववदुपसन्नु देहा भगोह दाता भगजित्प्रदाता भगो देवीः फल्गुनीराविवेश भगस्येत्तम् प्रसवङ्गमेम यत्र देवैः स धमादम् मदेम ॐ आयातु देवः सवितोपयातु हिरण्ययेन सुवृता रथेन वहनु हस्तकम् सुभगम् विद्मनापसम् प्रयच्छन्तम् पपुरिम् पुण्यमच्छा हस्तः प्रयच्छत्वमृतम् वसीयः दक्षिणेन प्रतिगृभ्णीमयेन तु दातारमद्यः सविता विधेया यो नो हस्ताय प्रसुवाति यज्ञम् ॐ त्वष्टानक्षत्रमभ्येति चित्राम् सुभगम् ससंयुभतिकम् रोचमानाम् निवेशयन्नमृतान्मर्त्यागुश्च रूपाणि पिगुंसन् भुवनानि विश्वा तन्नस्त्वष्टा ददु चित्रा विचष्टाम् तन्नक्षत्रम् भूरिदा अस्तु मह्यम् तन्नः प्रजाम् वीरवतीगुंसनोतु गोभिर्नो अश्वैः समनक्तु यज्ञम् ॐ वायुर्नक्षत्रमभ्येति निष्ट्याम् तिग्मशृङ्गो वृषभोरुर्वाणः समीरयन्भुवनामातरिष्वा अपद्वेषागुंसि नुदतामरातीः तन्नो वायुस्तदुनिष्ट्या शृणोतु तन्नक्षत्रम् भूरिदा अस्तु मह्यम् तन्नो देवासो अनुजानन्तु कामम् यथा तरे मधुरितानि विश्वा ॐ दूरमस्मच्छत्रवो यन्तु भीताः तदिन्द्राग्नी कृणुताम् तद्विशाखे तन्नो देवा अनुमदन्तु यज्ञम् पश्चात्पुरस्तादभयन्नो अस्तु नक्षत्राणामधिपत्नी विशाखे श्रेष्ठाविन्द्राग्नी भुवनस्य गोपौ विशोचः शत्रूरपबाधमानौ अपक्षुधन्नुदतामरातिम् ॐ पूर्णा पश्चादुदपूर्णा पुरस्तात् उन्मध्यतः पौर्णमासी जिगाया तस्याम् देवा अधिसंवसन्तः उत्तमेनाक इह मादयन्ताम् पृथ्वी सुवर्चायुवतिः सजोषाः पौर्णमास्युदगाच्चोभमाना आप्याययन्ती दुरितानि विश्वा उरुन्दुहाम् यजमानाय यज्ञम् ॐ अर्ध्या स्म हव्यैर्नमसोपसद्या मित्रम् देवम् मित्रधेयन्नो अस्तु अनुराधानु हविषा वर्धयन्तः शतम् जीवेम शरदः सवीराः चित्रम् नक्षत्रमुदगात् पुरस्तात् अनुराधा स इति यद्वदन्ति तन्मित्र एति पथिभिर्देवयानैः हिरण्ययैर्विततैरन्तरिक्षे ॐ इन्द्रो ज्येष्ठामनुनक्षत्रमेति यस्मिन्वृत्रम् वृत्रतूर्ये ततारा तस्मिन्भयममृतम् दुहानाः शुधन्तरे मधुरितिन्दुरिष्टिम् पुरन्दराय वृषभाय धृष्णवे अषाढाय सहमानाय मीढुषे इन्द्राय ज्येष्ठा मधुमद्दुहाना उरुङ्कृणोतु यजमानाय लोकम् ॐ मूलम् प्रजाम् वीरवतीम् विदेया परात्येतु निरृतिः परा च गोभिर्नक्षत्रम् पशुभिः समक्तम् अहर्भूयाद्यजमानाय मह्यम् अहर्नो अद्य सुविते दधातु मूलम् नक्षत्रमिति यद्वदन्ति पराचीम् वाचा निरृतिम् नुदामि शिवम् प्रजायै शिवमस्तु मह्यम् ॐ या दिव्या आपः पयसा सम्बभूवुः या अन्तरिक्ष उत पार्थिवीर्याः या सामषाढा अनुयन्ति कामम् ता न आपश्यग्गुस्यो नाभवन्तु याश्च कोऽप्या याश्च नाद्याः समुद्रियाः याश्च वैशन्तीरुतप्रासचीर्याः या सामषाढा मधुभक्षयन्ति ता न आपश्यग्गुस्यो नाभवन्तु ॐ तन्नो विश्वे उपशृण्वन्तु देवाः तदषाढा अभिसंयन्तु यज्ञम् तन्नक्षत्रम् प्रथताम् पशुभ्यः कृषिर्वृष्टिर्यजमानाय कल्पताम् शुभ्राः कन्यायुवतयः सुपेशसः कर्मकृतः सुकृतो वीर्यावतीः विश्वान् देवान् हविषा वर्धयन्तीः अषाढाः काममुपयान्तु यज्ञम् ॐ शृण्वन्ति श्रोणाममृतस्य गोपाम् पुण्यामस्या उपशृणोमि वाचम् महीम् देवीम् विष्णुपत्नीमजूर्याम् प्रतीचीमेनागुम् हविषाय जामः त्रेधा विष्णुरुर्गायो विचक्रमे महीम् दिवम् पृथिवीमन्तरिक्षम् तच्छ्रोणैति श्रव इच्छमाना पुण्यग्गुश्लोकम् यजमानाय कृण्वती ॐ अष्टौ देवा वसवः सोम्यासः चतस्रो देवीरजराश्रविष्ठाः ते यज्ञम् पान्तु रजसः पुरस्तात् संवत्सरीनममृतग्स्वस्ति यज्ञन्नः पान्तु वसवः पुरस्तात् दक्षिणतोऽभियन्तु श्रविष्ठाः पुण्यम् नक्षत्रमभिसंविशाम मा नो अरातिरघशगोसागन् ॐ क्षत्रस्य राजा वरुणोऽधिराजः नक्षत्राणागुं शतभिषग्वसिष्ठः तौ देवेभ्यः कृणुतो दीर्घमायुः शतगुं सहस्राभेषजानि धत्तः यज्ञन्नो राजा वरुण उपयातु तन्नो विश्वे अभिसंयन्तु देवाः तन्नो नक्षत्रगुं शतभिषग्जुषाणम् दीर्घमायुः प्रीतिरद्भेषजानि ॐ अज एकपादुदगात् पुरस्तात् विश्वाभूतानि प्रतिमोदमानः तस्य देवाः प्रसमयन्ति सर्वे प्रोष्ठपदासो अमृतस्य गोपाः विभ्राजमानः समिधान उग्रः आन्तरिक्षमरुहदगन्ध्याम् तगुम् सूर्यम् देवमजमेकपादम् प्रोष्ठपदासो अनुयन्ति सर्वे ॐ अहिर्बुध्नियः प्रथमानयेति श्रेष्ठो देवानामुतमानुषाणाम् तम् ब्राह्मणाः सोमपाः सोम्यासः प्रोष्ठपदासो अभिरक्षन्ति सर्वे चत्वार एकमभिकर्म देवाः प्रोष्ठपदास इति यानुवदन्ति ते बुध्नियम् परिषद्यग्स्तुमन्तः अहिगो रक्षन्ति नमसोपसद्या ॐ पूषा रेवत्यन्वेति पन्था पुष्टिपति पशुपावाजपस्त्यौ इमानि हव्या प्रयताजुषाणा सुगैर्नो यानैरुपयातां यज्ञम् क्षुद्रान् पशून्रक्षतु रेवतीनः गावो नो अश्वागो अन्वेतु पूषा अन्नगो रक्षन्तौ बहुधा विरूपम् वाजगुम् सनुताम् यजमानाय यज्ञम् ॐ तदश्विनावश्वयुजोपयाताम् सुभङ्गमिष्ठौ सुयमेभिरश्वैः त्वम् नक्षत्रगुम् हविषा यजन्तौ मध्वा सम्पृक्तौ यजुषा समक्तौ यौ देवानाम् भिषजौ हव्यवाहौ विश्वस्य दूतावमृतस्य गोपौ तौ नक्षत्रम् जुजुषा नोपयाताम् नमोऽश्विभ्याम् कृणुमोऽश्वयुग्भ्याम् ॐ अपपाप्मानम् भरणीर्भरन्तु तद्यमो राजा भगवान् विचष्टाम् लोकस्य राजा महतो महानहि सुगन्नः पन्थामभयम् कृणोतु यस्मिन्नक्षत्रे यम एति राजा यस्मिन्नेनमभ्यषिञ्चन्त देवाः तदस्य चित्रगो हविषाय जामा अपपाप्मानम् भरणीर्भरन्तु ॐ निवेशनी सङ्गमनी वसूनाम् विश्वारूपानि वसून्यावेशयन्ति सहस्रपोषगुम् सुभगाररानासान आगन्वर्चसा संविधाना यत्ते देवा अदधुर्भागधेयममावास्ये संवसन्तो महित्वा सा नो यज्ञम् बिबृहि विश्ववारे रयिन्नो धीः सुभगे सुवीरम् ॐ शान्तिः 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 हरिः ॐ